लोकविख्यातं सुप्रसिद्धं रामायणं आदिकाव्यत्वेन परिगण्यते। अत प्रश्न उदेति, कथं वा आदिकाव्यसंज्ञा इति? काव्यं नाम प्रायेण तत्र सर्वा अपि कथा श्लोकबद्धा भवति। तर्हि यदि रामायणम् आदिकाव्यं, तर्हि तत्रैव आदिमश्लोकः श्रुतः इति। कथम् इदं सर्वं सञ्जातम् इति प्रश्नः। इयमेव कथा रामायणस्य बाल्यकाण्डे द्वितीयसर्गे विवृता अस्ति। तां कथाम् इदानीं वयं शृणुमः। रामायणस्य आदिमसर्गः संक्षेपरामायणमिति नाम्ना अपि व्यवह्रियते। तत्र एकस्मिन् दिने ऋषिः वाल्मीकिः नारदं पृच्छति, कः सर्वगुणसम्पन्नः सम्प्रति अस्मिन् लोके वर्तते इति। श्रीनारदः उत्तरति, तादृशगुणशीलः कश्चन दाशरथिः रामः इति। अनन्तरं तस्य जीवनं समासेन बोधयति। वाल्मीकिः तत्सर्वं श्रुत्वा विस्मितः जातः। तदनन्तरं या कथा अनुवर्त्यमाना अस्ति, तस्याः इदानीन्तनश्रवणं कुर्मः। तर्हि द्वितीयसर्गे नारदस्य वचनं श्रुत्वा अस्माकं कविः वाल्मीकिः विस्मयं गच्छति। अत्र अकस्मात् अत्र नारदः आगतवान्, मम प्रश्नस्य उत्तरं च उक्तवान् इत्यादि। तर्हि मुहूर्तं यावत् सः स्तब्धः, अनन्तरं सः प्रबुद्धः जातः, चिन्तितवान् च। इदानीं प्रातःकालः सञ्जातः, मम प्रातःकालीनं कार्यं करणीयमस्ति, स्नानादिकम्, अतः नदीं प्रति गन्तव्यम्। तर्हि सोऽपि चिन्तितवान्, अत्र जानव्याः समीपे एव तमसा इति काचित् नदी अस्ति, तस्यां नद्यां स्नानार्थं गच्छामि इति। मम शिष्यः अपि आगच्छेयुः, मुख्यतया भरद्वाजः इति तस्य प्रसिद्धः शिष्यः। अतः सः प्रस्थितः। सः वाल्मीकिः तु नदीतीरं समासाद्य नदीं प्राप्य तत्र किञ्चित् उत्तमं स्थानम् अवलोकितवान्। नद्यां स्नानं तु तावत् सुलभं नास्ति, यतोहि कुत्रचित् नद्याः प्रचण्डगतिः भवति। यदि तादृशेषु क्षेत्रेषु स्नानं क्रियते, प्राणभीतिः एव स्यात्। अतः स्नानाय अनुकूलक्षेत्रप्राप्तिः आवश्यकी, यत्र प्रायः तत् नद्याः गतिः स्वल्पा एव स्यात्। पुनश्च क्लेशान्तरमपि अस्ति, यद्यपि दृश्यमानस्य भागस्य शान्तता स्यात्, तथापि अवनितलस्य समीपे प्रचण्डवेगः स्यात्। अतः न केवलं शान्ताम्बु आवश्यकं, प्रत्युत प्रसन्नाम्बु आवश्यकं, स्वच्छाम्बु आवश्यकम्। यदि कुत्रचित् प्रचण्डवेगः भवति, तर्हि सिकताः उद्गच्छन्ति। अतः तादृशस्थानं वर्जनीयं भवति। एवं श्रीवाल्मीकिः तादृशस्थलम् अकर्दमं तीर्थं दृष्टवान्। अनन्तरम् अकर्दममिदं तीर्थं हे भरद्वाज निशामय अवलोकय इति उक्तवान्। पश्य भोः भरद्वाज, वयं स्नानार्थम् आगताः स्मः, किन्तु स्नानानुकूल प्राप्तिः इदानीं लब्धा इति। सः उक्तवान्, रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा, रमणीयं क्षेत्रं यत्र प्रसन्नाम्बु वर्तते। तदपि सन्मनुष्यमनो यथा। तर्हि यथा सत्पुरुषाणां मनांसि प्रसन्नानि सात्विकगुणयुक्तानि भवन्ति तथैव इयमपि नदी। अनन्तरम् उक्तवान्, दीयतां वल्कलं मम नूतनवस्त्रं ददातु, किमर्थम् इदमेव अवगाहिष्ये, अत्र एव स्नामि। इदं क्व, इदं तमसातीर्थम् उत्तमम् एव अवगाहिष्ये, अत्रैव स्नामि। एवं सोऽपि स्ववस्त्रं स्वीकृत्य शिष्यहस्ताद् किञ्चित् वने विचचार। वस्तुतया मध्ये वनमासीतिव, तर्हि वनं पारयित्वा नदीतीरं गत्वा स्नानं करणीयमासीत्। तदा तु वनचरणसमये सः इतस्ततः अवलोकयन् गतवान्। रमणीयमिदं स्थानं ननु? तदा सुन्दरं पक्षिकूजनमपि श्रुतवान् सः वाल्मीकिः। तत्र एके दम्पती आस्ताम्, क्रौञ्चदम्पती, ययोः चारु निःस्वनः शब्दः आसीत्। ते विलोक्य मुदितः अभवत् श्रीवाल्मीकिः। एवमेव यदा ते दम्पती अवलोकयनासीत् श्रीवाल्मीकिः, निष्कारणमिव कथञ्चित् सः क्रौञ्चः हतः एकेन व्याधेन। तदा तु एषः क्रौञ्चः भूमिं पतितः। तस्य क्रौञ्चस्य भार्या या तस्य सकाशे एव आसीत्, तस्याः तु करुणामयी वाक् आसीत्। सा भृशं रोदिति। वाल्मीकेः वचनं भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरिम्। तत्सर्वं श्रीवाल्मीकिः दृष्ट्वा, तां रुदतीं क्रौञ्चीं दृष्ट्वा, अकस्मात् इदं वचनम् अब्रवीत्। इदम् उक्तवान् सः, मा निषादप्रतिष्ठां त्वम् अगमशाश्वती समाः यत् क्रौञ्चमिथुनादेकम् अवधीः काममोहितम्। अस्माकम् इतिहासे अयमेव आदिमश्लोकः इति अस्माकं विश्वासः। सामान्यतया यदा कोऽपि एवं क्रोधयुक्तः अथवा कश्चित् कामयुक्तः अथवा कश्चित् प्राणभीतः भवति, तदा तदा वयं मातृभाषया एव सरलतरशैल्या एव वदामः ननु? तादृशीषु एव स्थितिषु अत्र वाल्मीकिः एवमेव विलक्षणवचनमकरोत्। अत्र श्लोकरूपेण वचनमकरोत्। तदा तस्मिन् काले तु श्लोकाभ्यासः नैव आसीत्, यतोहि अयमेव आदिमश्लोकः। तर्हि एतत् सर्वमपि आश्चर्यजनकमासीत्। किमुक्तवान् सः? अस्य श्लोकस्य गूढार्थाः बहवः सन्ति, तथापि स्थूलतया वदति, मानिषादप्रतिष्ठां त्वमगमशाश्वतीस्समाः भवतः आयुः, भवतः पूर्णायुः न भवति इति। किमर्थम्? यतः क्रौञ्चमिथुनात् एकमवधीः काममोहितम्, यतः तस्य निष्करुणनिष्कारणहननं कृतमासीत् भवता इति। किन्तु विलक्षणता द्रष्टव्या अस्ति, यतोहि अयं महर्षिः निगृहीत इन्द्रियः, जितेन्द्रियः सः, महत् तपः आचरितं तेन, तथापि यत्र मित्र क्रौञ्च हननमात्रं दृष्ट्वा सः शपथमेव दत्तवान्। कथमिदम् इति? तर्हि सः महाप्राज्ञस्सन्नपि एतादृशकार्यं कृतवानिति चिन्तयन् आसीत्। स्वशिष्यं च इदं वाक्यम् उच्चारितवाक्यं सः अब्रवीत्। सः तस्मै अपि निवेदितवान् किं किं सञ्जातमिति, अपि च उक्तवान्, किन्तु अत्र विलक्षणता काचित् दृश्यते, यतोहि पादबद्धोक्षरसमतन्त्रीलयसमन्वितः इव। शिष्यः अपि तत्सर्वं श्रुत्वा अङ्ग्यकरोत्, आम्, यद्यपि शपनं कृतं भवता, तथापि अत्र इतोपि किञ्चित् वर्तते इव। श्लोकस्य गूढार्थाः अपि सन्ति, अतः भवता दुष्कार्यम् अनाचरितम् इव इत्यादि इत्यादि। एतत् सर्वं सञ्जातं, किन्तु तथापि प्रातःकालीनं कार्यं करणीयमेव अस्ति, स्नानादिकम्। अतः अन्ततो गत्वा वाल्मीकिः स्नानमेव कृतवान्, अनन्तरं पुनः स्वाश्रमं गतवान्। भरद्वाजः अपि शिष्यः तेन नीतः। वाल्मीकिः स्वाश्रमं प्रविश्य तत्र उपविष्टः पुनः कथाः अन्याः कृतवान्, इत्युक्ते बहुविधभाषणं सम्भाषणम् इत्यादि अभवत्। तथापि इदानीं कृतं शपनं पौनःपुन्येन मनसि तं बाधते, तदा अकस्मात् इतोऽपि किञ्चित् अभवत्। स्वयं चतुर्मुखः ब्रह्मा महातेज लोककर्ता तत्र आजगाम, किमर्थं तं मुनिं द्रष्टुम्। तर्हि प्रथमम् एतादृशं तेन कृतं, तेन सर्वं दृष्टम्, अनन्तरमिदानीं स्वयं चतुर्मुखब्रह्म अत्र आगत्य तं द्रष्टुमागतवान् अस्ति सः ब्रह्म। वाल्मीकिः तु तं दृष्ट्वा प्राञ्जलिः भूत्वा तस्य पूजामकरोत्, पाद्यं कृतवान्, अर्घ्यं कृतवान्, आसनं दत्तवान्, वन्दनं कृतवान् इत्यादि इत्यादि। अनन्तरमपि यद्यपि अत्र ब्रह्मा एव सम्मुखे स्थितः आसीत्, तथापि वाल्मीकिः तु ध्यानमास्थितः, इत्युक्ते यत्किमपि प्रवृत्तं तत्सर्वमेव पौनःपुन्येन विचारयन् आसीत् वाल्मीकिः। किमर्थम् एषः क्रौञ्चः हतः, किमर्थं व्याधेन तत् कृतं, किमर्थं मया शपनं दत्तम् इत्यादि। शोचयन् एव सः तत्र स्थितः ब्रह्मणस्सम्मुखे। अन्ततो गत्वा ब्रह्मा प्रहसन् तमुवाच, आम् आम्, एतत् सर्वं सञ्जातमिति जानामि, अत्र न कार्या विचारणा, तत्र चिन्ता मास्तु, श्लोक एव त्वया बद्धो, नात्र कार्या विचारणा, अत्र किमपि नास्ति, यतोहि अहमेव प्रचोदयिता, मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती, मच्छन्दादेव मदादेशादेव मदभिलाषादेव भवान् एतत् सर्वम् उक्तवान्। तर्हि किमर्थम्? यतोहि रामस्य चरितं कृत्स्नम् भवता करणीयमस्ति, एवमेव रामस्य कथा पुनः श्रावणीया अस्ति भवता। अतः एव खलु आदिमसर्गे नारदेनैव स्वयम् आगत्य एषा कथा श्राविता, सा एव कथा भवता पुनः अनुष्टुप् छन्दसा श्रावणीया अस्ति। तस्य धीरस्य रामस्य सर्वं वृत्तं कथय भो नारद इति, और क्षम्यता भो वाल्मीके यथा नारदात् श्रुतम्। तदा तु वाल्मीकेः मनसि काचित् शंका उत्पन्ना, नारदः तु समासेन कथाम् उक्तवान्, सर्वमपि सम्यक् प्रबुद्धं वा न वा इत्यपि अहं न जानामि, कथमेतां कथाम् अहं पुनः निवेदयामि इत्यादि। तदा तु चतुर्मुखब्रह्मा वदति, रहस्यं च प्रकाशं च यद्यद्वृतं तत्सर्वम् अविदितं तव विदितं भविष्यति, यत्किमपि संजातं रामस्य वा तत्र लक्ष्मणस्य वा राक्षसानां वा वैदेह्याः वा। यदि प्रकाशे सर्वं संजातं, यदि रहस्ये सर्वं संजातं, न कोऽपि क्लेशः, यतः सर्वमपि अविदितं ते विदितं भविष्यति, भवान् सर्वं जानीयात्। तादृशदैवदृष्टिः प्रदत्ता अस्ति मया, अतः न कापि चिन्ता कार्या। तथापि वाल्मीकेः शङ्कान्तरम् अजायत। अस्तु, तर्हि इदानीं भवतः वरात् अहं सर्वमपि वृत्तं जानामि, किन्तु यदा लिखामि तत्र केचन दोषाः स्युः, अस्पष्टता स्यात् इत्यादि। अतः पुनः ब्रह्मा चतुर्मुखः किञ्चित् अवदत्, न ते वाग् अनृता काव्ये काचिदत्र भविष्यति, भवतः लेखने भवतः काव्ये अत्र अनृता काचिदपि न भवति, किञ्चिदपि दोषः न भवति, यद्भवान् लिखति तत् सत्यमेव भवति, तादृशवरदानं कृतं मया इति। अत वाल्मीके कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्, एवमेव श्लोकबद्धां मनोरमां रामकथां कृत्स्नामपि कृपया श्रावय। पुनश्च किञ्चित् आशीर्वचनं कृतवान्, प्रसिद्धश्लोकोऽयम्, यावत् स्थास्यन्ति गिरयः सरितश्च महीतले तावद् रामायणकथा लोकेषु प्रचरिष्यति इति। यावत् एषः भूलोकः तिष्ठति तावत् एषा सुप्रसिद्धा रामायणकथा अत्र अवश्यं प्रचरिष्यति, पौनःपुन्येन एषा कथा श्रुता भवति, पौनःपुन्येन एषा कथा श्राविता भवति, यथा अद्यापि श्राव्यते अद्यापि एषा एव कथा श्रूयते भवद्भिः। अनन्तरम् एतत् सर्वम् उक्त्वा स्वकार्यं समाप्य चतुर्मुखब्रह्मा पुनः अन्तर्दधौ, पुनः स्वलोकं सः गतवान्। वाल्मीकिः पुनः विस्मितः एव सञ्जातः, आदौ नारदः आगतवान्, अनन्तरमेवमेव अहम् अकस्मात् श्लोकमुच्चारितवान्, तदनन्तरं स्वयं चतुर्मुखब्रह्मा आगत्य मां सम्मुखीकृत्य तद्वरदानं कृतवान्, इदानीं मया रामकथा करणीया इत्यादि। तर्हि परमं विस्मयं गतवान् सः वाल्मीकिः। तथापि विचार्य तत्त्वम् अवगम्य सोऽपि कतिबद्धः सञ्जातः, कृत्स्नं रामायणं काव्यम् ईदृशैः एव श्लोकैः अहं करवाणि इति कृतसङ्कल्पः सः वाल्मीकिः। सम्पूर्णमपि रामायणं काव्यम् ईदृशैः एव श्लोकैः अहं करवाणि, अहं लिखानि, यथा मानिषाद इति श्लोकः उच्चारितः मया, तथैव सम्पूर्णरामायणकाव्यम् उच्चार्यते मया, अहम् एतां सम्पूर्णाम् अपि रामायणकथां श्रावयामि इति। एवमेव रामायणस्य बाल्यकाण्डस्य द्वितीयसर्गः इति शम्।